एषा रेडियो नेपालः। सम्प्रति समाचाराः श्रूयन्ताम्। प्रवाचकः चन्द्रकान्त पौडेलः। प्रतिनिधिसभायाम् एतत् विक्रमवर्षीयस्य विनियोजन विधेयकस्य विभिन्नानि शीर्षकाणि आश्रित्य ह्यो विमर्शनम् अचलत्। उपवेशे शिक्षा विज्ञान प्रविधि मन्त्रालयस्य, पेयजल मन्त्रालयस्य, अर्थरक्षा मन्त्रालयोश्च शीर्षकाणि आश्रित्य विहिते विमर्शने भागं गृह्णन्तः सांसदः। राष्ट्रिय सुरक्षा नीति समयानुकूलतया परिमार्जनीया, शेयर मध्ये निवेशन कर्तृभ्यो ध्यानं देयम्, त्रिभुवन विश्वविद्यालयादि शैक्षिक संस्था, राजनीति क्षेत्राणि न विधातव्यानि, आयुर्वेद शिक्षा पद्धत्ये प्राथमिकता प्रदेयति च अयाचन्त। सांसदाः चिकित्सालयानां साधन स्रोतयुतान् विधाय स्तरोन्नतिः विधेया, वैदेशिक सामग्रीभ्यः सौविध्यं प्रदाय, स्वदेशीयोद्योगाः निरुत्साहिताः, सामुदायिक विद्यालयेषु शैक्षिक स्तरः क्षयीभूतश्चेति निगद्य एषु विषयेषु मन्त्रालयस्य ध्यानम् आकर्षयन् विमर्शने सहभागिनः सांसदाः सर्वकारः शिक्षाक्षेत्रं प्रति दायित्ववाही नास्तीति चर्चयन्तः अवोचन्। शैक्षिक सत्रे प्रारब्धे सत्यपि विद्यार्थिभिः अधुनावधि पुस्तकानि न प्राप्तानीति विषयः दुःखदोऽस्ति। जनकशिक्षा सामग्री केन्द्रेण अनुबन्धकाय मन्त्रालयेन जनकशिक्षा केन्द्राय च आरोपीकरणेन विद्यार्थिनां भविष्ये एव गभीरः प्रभावः सृष्टोऽस्ति। हिंसायाः अन्त्यस्य विषय पाठ्यक्रमे समावेशनीय। सार्वजनिक शिक्षा क्षेत्रस्य गुणस्तरीय सम्पादनेन विना देशः समृद्धः भवितुं न शक्नोति इति निगद्य 57 शिक्षकस्थानानाम् आवश्यकतायां सत्यामपि आयव्ययेन विषयोऽयं न सम्बोधितश्चेति निगद्य सांसदाः सर्वकारस्य ध्यानम् अकर्षयन्। सांसदाः आवासन्त नेपाले उत्पादित जलस्य निर्याताय उद्योगाः प्रोत्साहनीयाः, अशुद्ध पेयजलस्य प्रयोगः अवरोधनीयः, स्वास्थ्य शिक्षा क्षेत्रे व्यावसायिके च स्वास्थ्य शिक्षा क्षेत्रे व्यावसायिके न विधातव्ये, नागरिकाणां सौविध्याय दक्ष जनशक्तिश्च उत्पादनीया। तत्पूर्वम् उपवेशे सांसदाः डा सूर्यप्रसाद पाठकः, डा भीमबहादुर रावलः, नवराज सिलवालः, यज्ञराज सिनुवारः, प्रेम सुवालः, दुर्गा पौडेलश्च एतद् विक्रमवर्षीये विनियोजन विधेयके व्यय न्यूनीकरणाय प्रस्तावं प्रस्तुवन्। ह्यस्तनोपवेशस्य प्रारम्भस्य अनुपदमेव सांसदः हृदयेश त्रिपाठी कृषकेभ्यः मलप्रदानस्य सीमाक्षेत्रेषु नेपालप्रहरेण एव दुःखं प्रदीयमानमस्तीति हेतोः तादृशकार्यस्य अवरोधनस्य च विषयम् उपस्थापितवान्। सांसदः कृष्णकुमार राई काष्ठमण्डपस्य अवकर व्यवस्थापने सर्वकारः गभीरो नास्तीति आरोपयत्। सांसदः गणेशसिंह ठगुन्ना च दार्चुला जनपदस्य शैलेशी ग्रामपालिकायाः प्रथमवडा क्षेत्रस्य एकलमहिला अग्नि अनिभा खडायत तृणानां राशौ संस्थाप्य मारिते इति निगद्य दोषिणः कठोरेण दण्डयितुम् अयाचत। प्रतिनिधिसभायाः ह्यस्तनोपवेशे गुरूकुलीय शिक्षायां दलित विद्यार्थिनामपि स्थानं सुरक्षितं भवेदित्यत्र सभामुखस्य अग्निसापकोटाविदस्य ध्यानाकर्षणं विहितं वर्तते। अस्यैव ज्येष्ठमासस्य एकविंशे दिवसे जातीय विभेदोन्मूलन दिवसस्यावसरे काष्ठमण्डपस्य जगद्गुरु आदर्श संस्कृत गुरूकुले पठनार्थं गताः चत्वारः छात्राः भुवनेश्वर सुनार, भीमबहादुर सुनार, विराज सुनार, समीर सुनार च दलिताः इति उक्त्वा निष्कासिताः आसन्। नेकपा एकीकृत समाजवादी दलस्य सांसदः माननीया पार्वती विसुङ्खे सभामुखस्य ध्यानाकर्षणं कृतवती दोषिणः कठोरेण दण्डयितुं च अयाचत। निष्कासितेषु छात्रेषु द्वौ छात्रौ देवघाटस्थानस्य बागेश्वरी वर्तिनी योगी नरेन्द्रनाथ संस्कृत गुरूकुले पठनाय प्रवेशितौ इति योगी नरेन्द्रनाथ संस्कृत गुरूकुलस्य प्राचार्यः माधव पौडेलः ज्ञापयत्। नेपालस्य प्रायः गुरूकुलेषु जातीय विभेदः उच्चरूपेण वर्तते। राष्ट्रिय सभायाः ह्यः उपविष्टे उपवेशे गतविक्रमाब्दीयं शपथ सम्बद्धं विधेयकं प्रस्तुतं वर्तते। उपवेशे प्रधानमन्त्रिणः शेरबहादुर देउवा विदस्य पक्षतः विधि न्याय संसदीय विषय मन्त्री गोविन्द प्रसाद शर्मा प्रस्तावममुं प्रास्तौत्। एवमेव मन्त्री कोइराला राष्ट्रिय प्राकृतिक स्रोत वित्त आयोगस्य वार्षिक प्रतिवेदनं, मधेसी आयोगस्य वार्षिक प्रतिवेदनं, मुस्लिम आयोगस्य वार्षिक प्रतिवेदनं, नेपाल सरकारस्य वार्षिक प्रतिवेदनं च प्रास्तौत। तत्पूर्वम् उपवेशस्य विशेष समये सांसदैः वर्षाकाले सम्भावितायाः क्षतेः न्यूनीकरणाय सर्वकारस्य ध्यानाकर्षणं कारितमासीत्। सांसदाः तुलसी कुमारी दाहाल, अनिता देवकोटा, भुवन बहादुर सुनार च जलविप्लवस्य भूस्खलनस्य च कारणेन प्रतिवर्षं जनधनयो क्षतिः भवति इत्यत्र पूर्वसुरक्षायै सर्वकारस्य ध्यानम् आकृष्टवन्तः। राष्ट्रियसभायाः अपरोपवेशः आषाढमासस्य प्रथमदिनांके अवस्था। राष्ट्रपतेः विद्यादेवी भण्डारिणः समक्षं नेपालस्य कृते देशचतुष्टयस्य राजदूतैः स्वस्वपदीय प्रमाणपत्राणि प्रस्तुतानि सन्ति। शीतलनिवासवर्तिनी राष्ट्रपति कार्यालये भिन्ने भिन्ने समारोहे चिली देशस्य आवासीयेतर राजदूतः जुवान रोनाल्डो, अंगोला मन्साल्भे, जमैका देशस्य आवासीयेतर राजदूतः जसन किर्च मैथ्युहल, इण्डोनेशिया देशस्य आवासीयेतर राजदूतः हेरू हर्टान्टो सुबो, स्पेन देशस्य आवासीयेतर राजदूतः मारिया रिडाओ डोमेनगोच स्वस्व प्रमाणपत्राणि प्रस्तुतवन्तः। समारोहे परराष्ट्र मन्त्री नारायण खड्का, नेपाल सर्वकारस्य उच्चपदस्थ अधिकारिणश्च उपस्थिताः आसन्। प्रधानमन्त्री शेरबहादुर देउवा काष्ठमण्डप महानगरपालिकायाः प्रमुखश्च बालेन्द्र शाहः अवकर व्यवस्थापनाय ह्यः विमिष्टवन्तौ। महानगर प्रमुखं बालेन्द्र शाहं बालुवाटारवर्तिनीं प्रधानमन्त्री निवासे आहूय प्रधानमन्त्री देउवा अवकर व्यवस्थापनाय उत्पन्नां समस्यां समाधातुं नेपाल सर्वकारस्य सहयोगः भवतीति प्रतिबद्धतां व्यक्तवान्। तदवसरे प्रधानमन्त्री देउवा अवकर व्यवस्थापनाय बञ्चरी डाँडा स्थानस्य निवासिभिः जनप्रतिनिधिभिश्च विमृश्य दीर्घकालिक समाधातुम् अन्वेष्टुं बालेन्द्र शाहं अनुरोधत्। राष्ट्रपतिना विद्यादेवी भण्डारिणा कतार देशस्य स्वीकृते नेपालस्य आवासीयेतर राजदूतपदे डाक्टर नरेश विक्रम ढकाल नियुक्तो वर्तते। संविधानस्य अनुसारेण मन्त्रिपरिषद परामर्शे डाक्टर ढकाल कतार देशस्य स्वीकृते आवासीयेतर राजदूतपदे नियुक्त इति राष्ट्रपति कार्यालयस्य प्रवक्ता सागर आचार्य ज्ञापयत्। नेपाली कांग्रेस दलं लोकतन्त्रं संस्थागति कर्तुं दलस्य स्पष्ट धारणां निर्माय जनतायां गमनस्य आवश्यकतां प्रदर्शयति। स्थानीय स्तर निर्वाचनानुगमन मूल्यांकन सुपरिवेक्षणोपसमितेः संयोजकः नेपाली कांग्रेस दलस्य केन्द्रीय सदस्यश्च प्रदीप पौडेलः दलस्य स्पष्ट नीतिं नैर्वाचनिक विषयं जनतां बोधयितव्यम् इति अज्ञापयत्। नेता पौडेलः स्वच्छसभियुतान् स्पष्टवादिनः दूरदर्शिनः लोकप्रियाञ्च जनान् परिचित्य प्रत्याशितां निर्धारयितुं दलस्य सभापतिं शेरबहादुर देउवाभिधम् अनुरोधत्। नेपाली कांग्रेस दलस्य नेता प्रकाशमान सिंहः जनतायाः विश्वासं जित्वा निष्ठापूर्वकं कार्यं कर्तुं नवनिर्वाचितान् जनप्रतिनिधीन् अनुरोधति। नेपाली कांग्रेस दलस्य नवम वडा क्षेत्रेण ह्यः आयोजिते कार्यक्रमे नेता सिंहः जनतया प्रदत्तं दायित्वं निष्ठापूर्वकं वोढुं जनप्रतिनिधीन् अनुरोधत्। नेता सिंहः विश्वेश्वर प्रसाद कोइराला गणेशमान सिंह कृष्णप्रसाद भट्टराय सुवर्ण शमशेर जबरा चेत्यादि नेतृणां त्यागं योगदानं च स्मृत्वा जनतायाः कार्याणि कर्तुं जनप्रतिनिधीन् अनुरोधत्। नेपाल तैल निगमेन गतरात्रो द्वादशवादनतः क्रियान्वयनत्वेन पेट्रोल डीजल मृत्तिका तैलानां मूल्यं वर्धापितमस्ति। नेपाल तैल निगमेन भारतीय तैल निगमाय प्रदातव्ये वित्ते न्यूनीभवनानन्तरं पेट्रोल तैले प्रतिलिटरमितं अष्टभिः रूप्यकैः डीजल मृत्तिका तैलयोश्च प्रतिलिटरमितं द्वादशभिः रूप्यकैः वृद्धि कृतेति निगम संचालक समित्या ज्ञापितमस्ति। मूल्यवर्धनानन्तरं पेट्रोल तैलस्य मूल्यं प्रतिलिटरमितं अष्टसप्तत्यधिकशतं रूप्यकाणि डीजल मृत्तिका तैलयोः मूल्यं प्रतिलिटरमितं पञ्चषष्ट्यधिकशतं रूप्यकाणि च प्राप्तानि सन्ति। बुधवासरं यावत् निगमेन भारतीय तैल निगमाय विंशतिः अब्जादपि अधिकानि रूप्यकाणि प्रदातुम् अवशिष्टानि सन्ति। अन्तर्राष्ट्रिय पणे उच्चस्तरेण शिलातैलीय पदार्थानां मूल्यवृद्धि सम्भूता। भारतीय तैल निगमाय प्रदेयं वित्तं वर्धमानं चास्तीति हेतुः मूल्यवृद्धि विधेया भूदिति निगमस्य प्रवक्ता विनीतमणि उपाध्यायः ज्ञापयति। अधिकार दुरुपयोगानुसन्धानायोगेन निर्धारित योग्यताभावयुतेभ्य आवेदकेभ्य नियुक्ति पद्धति निगद्य राष्ट्रिय चायकपि विकास समितेः जनचतुष्टयस्य विरुद्धे न्यायिक प्रकरणं पञ्जीकारितं वर्तते। समित्या द्वासप्तत्यधिक द्विसहस्रतम विक्रमवर्षस्य आश्विन मासस्य द्वितीय दिवसे गोर्खापत्रे प्रकाशित सूचनायाः अनुसारेण विभिन्न पदेषु पदपूर्ते विज्ञापनं विहितम् आसीत्। कृषि प्राविधिक लेखापाल पदयोः शैक्षिक योग्यताभावत्य व्यक्तयः नियुक्ताः इति निगद्य प्रदत्तस्य न्यायिक निवेदनस्य सम्बन्धे अनुसन्धानस्य क्रमे आयोगेन समितेः तात्कालिकानां कार्यकारी निदेशकस्य शेषकान्त गौतमस्य तात्कालिक प्रशासन शाखा प्रमुखस्य रघुपति चौधरिणः कृषि विकासाधिकृतस्य गौरव लुण्डेल विधस्य लेखाधिकृतस्य टंकप्रसाद ओरिनस्य विरुद्धे ह्यः काष्ठमण्डपवर्तिनी विशेष न्यायालये न्यायिक प्रकरणं पञ्जीकारितमिति आयोगस्य सहायक प्रवक्ता वेदप्रसाद भण्डारी अज्ञापयत्। वृष्ट्या सहैव दुरापन्नेन वज्रपातेन सप्तरी जनपदस्य बोधेवसाई नगरपालिकायाः तृतीय वडा क्षेत्रस्य मधुवनस्थाने ह्यः जनद्वयं मृतम्। गोचरणाय गतौ षट्पञ्चाशद्वर्षीयः रामजी यादवः अशीतिवर्षीयः सत्यनारायण यादवश्च वज्रपातेन मृताविति प्रहरी नायब परीक्षकः माधवप्रसाद काफले अज्ञापयत्।